हरिः ॐ। वक्रतुण्डमहाकाय सूर्यगौरीसमप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। गुरुर्ब्रह्मा गुरुर्विष्णु गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीमुपास्महे सरस्वती नमस्तुभ्यं वरदे कामरूपिणि विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा। श्रीः गुरवे नमः। श्री ओं हरि ओम्।
धन्यवादः भगिनी, धन्यवादः। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र हल् सन्धिः, हल् सन्धिः अपि तत्र सूत्रसहिता दृष्टिः इति। तत्र स्वरूपमहोदयस्य करपत्रं यदस्ति तत् करपत्रस्य पठनम् अपि तदा समानसमये तत्र गीताप्रवेशे तत्र हल् सन्धेः तत्र पाठः यः अस्ति तं पाठमपि वयं पठन्तः स्मः। तर्हि तत्र गतवर्गे वयं तत्र स्वरूपमहोदयस्य करपत्रे वयं तत्र प्रायशः अन्तिमभागः, हा प्रायशः तद् एकवारं पठामः। तर्हि शोभा भगिनी, भवती गतवर्गे पठितवती, तत्र पुनः भवती एव एकवारं पठित्वा
महोदय कुत्र अस्ति करपत्रं, कुत्र अस्ति?
ईमेल् मध्ये
प्रेषितवान्।
किन्तु यदि भवती इच्छति चेत् तत्र पुनः तत्र एकनिमिषं तत्र अहं
मम पार्श्वे ईमेल् अस्ति तत्र गृहपाठः करपत्रम् आन् हल सन्धि पठतु
तदेव भगिनि तदेव
अच्छा क्लिक् तद् क्लिक् करोति
चेत् तत्र एव। तर्हि तत्र शोभा भगिनी भवती तत्र कुत्र आसीत् इत्युक्ते श्चुत्वसन्धि विषये तत्र ध्येयं यत् सन्धिचिन्तनं यत्र सन्धिचिन्तनं भवति सदा ज्ञातव्यम् इति भवती तत्र
वयं श्चुत्वसन्धिपर्यन्तं कृतवान् तत्र श्चुत्वसन्धिः न कृतम् इति मम
प्रथमसन्धिः श्चुत्वसन्धिः एव
तत्र ध्येयम् इति कुत्र अस्ति महोदय?
फुट्नोट् भगिनि तत्र
अस्तु शात् इत्यस्मात् परं ध्येयं यत् ध्येयं यत्
वदतु भगिनि,
वदतु महोदय।
न तदेव तदेव
अस्तु ध्येयं यत् यत्र सन्धिचिन्तनं भवति सदा ज्ञातव्यं यत् प्रवर्तमानं सन्धिकार्यं पदान्ते अस्ति न वा। अत्र भवत् योगः चक्षु इति समासस्य प्रसङ्गः। अनयोः पूर्वोत्तरपदयोः सन्धिः करणीयः। तर्हि प्रमुखप्रश्नः भवति यत् भवत् इति पूर्वपदस्य पदसंज्ञा अस्ति न वा। समासस्य लौकिकविग्रहवाक्यं भवति यथा भवच्चक्षुः इत्यस्य कृते भवतः चक्षुः इति लौकिकविग्रहवाक्यम्। अलौकिकविग्रह इत्युक्ते शास्त्रीयविग्रहवाक्यम् अपि भवति यस्य द्वारा समासनिर्माणं सिध्यति। यथा भवच्चक्षुः इत्यस्य भवत् नस् योगः चक्षुसु इति भवति। अत्र प्रथमतया समासस्य प्रातिपदिकसंज्ञा भवति कृत्तद्धितसमासाश्च इत्यनेन सूत्रेण। तदा सुप् प्रत्ययस्य लुक् इत्युक्ते लोपः भवति सुपो धातुप्रातिपदिकयोः इत्यनेन। भवत् नस् योगः चक्षुसु इत्यस्मिन् नस् सु इत्यनयोः लुक्, तदनन्तरं भवत् योगः चक्षु सुप्पिङ्गन्तं पदम् इत्यनेन यस्य अन्ते सुप् प्रत्ययः अस्ति तस्य पदसंज्ञा भवति। अत्र च भवत् इत्यस्य अन्ते सुप् नास्ति। तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा। उत्तरमस्ति यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन पदसंज्ञा अस्ति एव। इत्थञ्च पर्यवसितं यत् सन्धिचिन्तनावसरे समासे पूर्वपदस्य पदसंज्ञा भवति। लुकि सति लुप्तपदम् अधिकृत्य अङ्गकार्यं न भवति किन्तु पदसंज्ञा इति नामकरणं न तु अङ्गकार्यम् अतः पूर्वपदस्य पदसंज्ञा निमित्तीकृत्य सन्धिकार्यम् इत्यादिकं प्रवर्तनीयम् एताद्धारेण भवत् अस्तु एताद्धारेण भवत् योगः चक्षु तत्र जलां जशोन्ते इति सूत्रेण अस्तु तस्मात् पूर्वं तत्र वदनीयं वा महोदय परिच्छेदे किं
सत्यं भगिनि सत्यं भगिनि तर्हि तत्र प्रायश तत्र अर्धभागं भवति करोतु तदनन्तरं विवृणोतु तदनन्तरम् अन्य कोऽपि अग्रे करोति
परिच्छेदस्य अर्धभागं भागस्य अस्तु हा तत्र अस्माकं ध्यानं भवेत् यत् यत्र सन्धिकार्यं भवति भवितुम् अर्हति तदा सन्धिकार्यं द्वयोः वर्णयोः मध्ये भवति सन्धिकार्यं पदान्ते प्रवर्तमानं सन्धिकार्यं तत्र पदान्ते अस्ति न वा इति इत्युक्ते पदस्य अन्ते अस्ति वा इति यतोहि तत्र समासस्य विषयम् उक्तम् इदानीम् अग्रे उक्तं भवति तस्मिन् परिच्छेदे प्रातिपदिकयोः पदयोः एव समासः न तु किं तत्र अपदान्ते समासः न भवति अतः अत्र भवत् योगः चक्षु इति उदाहरणं स्वीकृत्य तत्र समासस्य प्रसङ्गः अस्ति इति उक्त्वा प्रसङ्गः अस्ति अनयोः पूर्वोत्तरपदयोः सन्धिः करणीयः पूर्व उत्तरपदयोः इत्युक्ते तत्र तकार चकारः अस्ति तयोः सन्धिः करणीयः इति समासे अपि सन्धिः भवति तर्हि
अपि तत्र समासस्य प्रसङ्गे सन्धिः नित्यं
सन्धिः नित्यं सन्धिः करणीयम् एव
विकल्पः नास्ति
विकल्पः नास्ति हा तर्हि तत्र प्रश्नः प्रमुखप्रश्नः यत् भवति इत्युक्ते तत्र पूर्वपदस्य समासे पूर्वपदस्य पदसंज्ञा भवति तर्हि तत्र पूर्वपदस्य पदसंज्ञा अस्ति वा न वा पदम् अस्ति वा अथवा पदं नास्ति वा इति द्रष्टव्यं भवति यतोहि तत्र अस्मिन् उदाहरणे भवच्चक्षुः इति तत्र भवत् इति पदं स्वीकुर्मः चेत् भवतः चक्षुः इति लौकिकव्यवहारे वदामः तस्य विग्रहवाक्यं भवच्चक्षुः इत्युक्ते किम् इत्युक्ते अस्तु तत्र भवतः चक्षुः इति अस्ति आसीत् पूर्वम् इति वक्तुं शक्नुमः किन्तु शास्त्रीयचिन्तनं यदा भवति तदा तादृशं न भवति तत्र सन्धिकार्यम् अभवत् अपि च तत्र पदयोः सन्धिः समासे सन्धिः इति कृत्वा भवच्चक्षुः इत्यस्य तत्र दर्श कीदृशं तस्य दर्शनं भवेत् इति चेत् भवत् नस् इति सुबन्तप्रत्ययः सुप् प्रत्ययः तत्र षष्टिविभक्त्याम् एकवचने नस् इति सुप्रत्ययः योगः चक्षु तत्र सु इति प्रथम एकवचने सुप्रत्ययः इति भवति भवत् नस् योगः चक्षुसु इति अत्र प्रथमतया किं समासस्य प्रातिपदिकासंज्ञा भवति समासस्य चिन्तने प्रातिपदिकासंज्ञा भवति कृत्तद्धितसमासाश्च इति कृत्तद्धितसमासानां कृते प्रातिपदिकसंज्ञा भवति इति कृत् प्रत्यया तद्धितप्रत्यया समासानां विषये इत्यनेन सूत्रेण तावत् वा महोदय
अस्तु भगिनी भवती एव पूर्णतया करोतु तदनन्तरम् उदाहरणं यदस्ति तत्र भवत्योगः चक्षुः अधोभागे तत् अन्यतोपि कुर्यात् हा भवती सम्यक् रीत्या वदन्ती अस्ति
प्रयत्नं कुर्वती अस्मि महोदय
समीचीनं भगिनि
तदा सुप् इदानीं तत्र समासे सन्धिकार्यं कृते सुप्रत्ययस्य लुक् इति भवति तत्र इत्युक्ते एकप्रकारः लोपः लुक् इति तत् सुपो धातु प्रातिपदिकयोः इति सूत्रेण भवति तदनन्तरं तत्र नस् अपि च सु च इति प्रत्यययोः लोपः भवति. लुक् इति नामकरणं, तस्य लोपस्य नामकरणं लुक् इति. इदानीं तयोः लोपानन्तरं भवत्योगः चक्षु इति एव अवशिष्यते तत्र. इदानीं पूर्वपदस्य पदसंज्ञा भवेत्. सुप्तिङन्तं पदम् इति सूत्रेण यस्य अन्ते सुप् प्रत्ययः अस्ति तस्य पदसंज्ञा भवति. तत्र सुप्तिङन्तम् इति अपि अस्ति, अतः यस्य अन्ते तिङ् प्रत्ययः अस्ति तस्य अपि पदसंज्ञा भवति. अस्मिन् प्रसङ्गे तस्य पदसंज्ञा भवति सुप् प्रत्ययः अन्ते अस्ति इति कारणेन. अत्र च भवत् तर्हि तत्र भवत् इत्यस्य अन्ते सुप् नास्ति इदानीम्, आसीत् तस्य लोपः अभवत्, तर्हि कथं तस्य पदसंज्ञा भवति इति प्रश्नः भवति इदानीम्. किन्तु तत्र तस्य उत्तरम् अस्ति प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रम्. इत्युक्ते तेन सूत्रेण यद्यपि तत्र लुक् अभवत्, लोपः अभवत् लुक् इत्यनेन, किन्तु तत्र अपि च मुख्यविषयः अस्ति तत्र लुक् इत्यनेन लोपः अभवत्, सामान्यलोपः न, लुक् इत्यनेन. यदा लुक् इत्यनेन लोपः भवति तदा प्रत्ययलोपे प्रत्ययलक्षणम् इत्यस्य प्रसङ्गः भवति. इत्युक्ते प्रत्ययः लोपः अभवत् तथापि तस्य लक्षणं तिष्ठति, तस्य प्रत्ययस्य लक्षणं तिष्ठति इति. अस्मिन् प्रसङ्गे पदसंज्ञा अभवत्, अतः तस्य पदसंज्ञा तिष्ठति, अङ्गकार्यं न भवति इति. लोपः प्रत्ययस्य लोपः भवति चेत् अङ्गकार्यं न भवति, किन्तु पदसंज्ञा तु तिष्ठति इति. यतोहि पदसंज्ञा नामकरणमस्ति, अङ्गकार्यं नास्ति, अतः पदसंज्ञा तिष्ठति इति कृत्वा तत्र पदम् इति भवति. इदानीं भवत् इति पदम् इति पदं भवति स्वीकर्तुं शक्नुमः. तदनन्तरं समासकार्यं भवति
इति दृष्ट्वा तत्र एतत् प्रातिपदिकम् अस्ति अतः तत्र पदं नास्ति इति तादृशं चिन्तनं मास्तु इति अत्र.
आम्,
समीचीनं भगिनि, बहु समीचीनं, धन्यवादः.
धन्यवादः.
इदानीं इदानीम् अग्रे तत्र नरेश् महोदय अग्रे वदति वा?
आं महोदय, अग्रे उदाहरणमस्ति भवत् योगचक्षु. भवत् योगचक्षु तत्र प्रथमा तु अत्र झलां जशोऽन्ते आगच्छति, जष्ट्वसन्धि आगच्छति. तत्र प्रथमपदं तस्य अन्तिम वर्णः झल् मध्ये अस्ति चेत् अग्रे तत् उत्तरपदे तत्र जष्त्वं भवति, जष् प्रत्याहारस्य वर्णः आगच्छति. अत्र भवत् तकारः झल् प्रत्याहारे अस्ति, अतः झल् प्रत्याहारे अस्ति तस्य वर्णं भवति झल् प्रत्याहारस्य परिवर्तनं जष् प्रत्याहारे भवति. अतः जष् प्रत्याहारे तु वर्गीय तृतीय वर्णः अस्ति, अतः तकारस्य स्थाने दकार तत् तृतीयवर्णः अस्ति, तत् आगच्छति. अतः भवत् भवद् भवति, भवद् योगचक्षुः चक्षु भवति. तदुपरान्त् तत्र श्चुत्वसन्धि आगच्छति. तस्य सूत्र अस्ति स्तोः चुनाश्चुः. तत्र सकारस्य वर्गस्य षकारस्य च वर्गस्य मेलनम् अस्ति चेत् तत्र षकार च वर्गः भवति, अत्र भवद् अस्ति, भवद् तु तकारे अस्ति, तस्य मेलनं चक्षु, चकारस्य मेलनं भवति, अतः दकारस्य स्थाने चवर्गस्य तृतीयवर्णः आगच्छति, तत् भवद् भवज् भवति, भवज्
तत्र
योगचक्षु,
तत्र तवर्गीय अपि सकारस्य तत्र स्तोः इति तत्र अस्ति, तत्र
अत्र तु
स्टू इति तस्य प्रभावेन, तस्य सम्पर्केन अथवा तस्य प्रभावेन, स्टुः इति तस्य प्रभावेन स्तुः इति यदस्ति तस्य परिवर्तनं भवति स्टुः इति.
एतत् उदाहरणे सकारः नास्ति अतः शकारः न आगच्छति, सवर्गवर्णः दकारः अस्ति तस्य परिवर्तनं भवति चवर्गस्य जकारः आगच्छति, योगचक्षु भवति. तदपरा अग्रे चर्त्वसन्धि भवति खरिच सूत्रेण, खरिच सूत्रेण तत्र जकारस्य स्थाने तत् वर्गस्य प्रथमवर्णः आगच्छति, जकारस्य स्थाने चकारः आगच्छति, अतः भवज् भवच् भव भवच् योगचक्षु, तत् वर्णमेलने भवच्चक्षु भवति.
भवचक्षु इति प्रातिपदिकम् उकारान्तपदं
प्रथमविभक्ति एकवचनं भवच्चक्षुः भवति
इति गुरुवत् इति भवति, उत्तमं महोदय, समीचीनं. अग्रे
एवमेव अग्रे यत्र कुत्रापि समासः अस्ति तत्र पूर्वपदस्य पदसंज्ञा मनसि निधाय सन्धिचिन्तनं करणीयम्
इति अस्ति. अस्तु, समीचीनं, धन्यवादः महोदय. अस्तु, इदानीं तत्र प्रश्नः, तत्र अस्माकं क्रमः किं भवेत् नाम प्रथमतया सूत्रं पठित्वा तदनन्तरं गीताप्रवेशे उदाहरणानि पठामः वा अथवा तत्र किं कुर्मः, किं चिन्तयन्ति?
सूत्रं पठामः तत्पश्चात् गीताप्रवेशम् अभ्यासं कुर्मः.
आम् महोदय.
अस्तु, मम तत्र श्रुत्वसन्धि पठितवन्तः, तर्हि तत्र श्रुत्वसन्धेः उदाहरणानि पठामः वा तर्हि गीताप्रवेशे, अथवा तत् कृतवन्तः इति कृत्वा अग्रे श्रुत्वसन्धि कृत्वा तत्र क्षम्यतां, तत्र श्रुत्वसन्धि कृत्वा तन्त्रं गीताप्रवेशं पठामः वा?
तत्र श्रुत्वसन्धि पठितवन्तः, श्रुत्वसन्धि अभ्यासान् कुर्मः चेत् सम्यक् इति मन्ये.
अस्तु भगिनि, तर्हि तदेव कुर्मः. तर्हि तत्र नवविंशतितमे पुटे तर्हि तत्र गीताप्रवेशे पठामः. तर्हि तत्र अस्तु, अग्रे तत्र पल्लवी भगिनी आरम्भं करोति वा? सुजाता भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनी. तर्हि तत्र गीताप्रवेशे पल्लवी भगिनी
व्यञ्जनसन्धिः तद्विभागः, व्यञ्जनसन्धेः बहवः नियमाः सन्ति, अत्र तेषु केचित् नियमाः विवृताः सन्ति, तान् सर्वान् सावधानं पठत. श्चुत्वसन्धि श छ छ ज झ नियम एतानि उदाहरणानि परिशीलयत. शिशुश्चेते, अत्र शिशु योगे स सकार योगे शकार योगे एते तत्र शिशु अधिक शकार तालव्य शकार अधिक तालव्य शकार अधिक एते शिशु शेते अत्र प्रथमपदस्य अन्तिमवर्ण सकार आसीत् श्रुत्वसन्धिनियमेन अग्रे तालव्यशकार अस्ति अतः दन्तव्यशकारस्य तालव्यशकारः अभवत् अतः शिशुश्रेते इति सिद्धरूपम्
समीचीनं भगिनि हा नाम तत्र सकारस्य शकारस्य प्रभाव शकारस्य सम्पर्केण अथवा प्रभावेन सकारस्य शकाररूपेण परिवर्तनम् समीचीनं भगिनि हा अस्तु तथैव अग्रिममपि
पाण्डवास् च पाण्डवा योगे सकार योगे चकार अधिक अ तर्हि पाण्डवा अधिक सकारस्य दन्तव्यसकारस्य आलव्यशकारः अभवत् अग्रे चकार अस्ति इत्यनेन तर्हि अश्चुत्वसन्धि नियमेन सकारस्य शकारः अभवत् अतः सिद्धरूपमस्ति पाण्डवाश्च
समीचीनम् अस्तु अग्रे
अग्रे रामस् छात्रः रामयोगे सकार योगे छकार अधिक आत्रः तर्हि अन्तिम वर्णः अस्ति सकार प्रथमपदस्य अग्रिमपदस्य आदिवर्णः अस्ति छकार तर्हि श्चुत्वसन्धिनियमेन दन्तव्यसकारस्य शकार तालव्यशकारः अभवत् तर्हि सिद्धपदरूपमस्ति रामश्छात्र छात्रः
रामश्छात्रः तर्हि तत्र सकारः तत्र श्चुत्वस्य प्रभावेन
शकारः
शकारः तालव्यशकारः रूपं स्वीकरोति अस्तु उत्तमं भगिनि
एतेषु उदाहरणेषु सकारात् परतः शकार च वर्गौ वर्णौ स्तः तत्र सकारस्य स्थाने शकारादेशः सम्पन्नः
इति अस्ति उत्तमं भगिनि धन्यवादः समीचीनं अस्तु अग्रे सुजाता भगिनी अग्रे पठति वा
महोदय एतानि उदाहरणानि परिशीलयत भगवत् योगः शक्तिः भगव योगः तकारः योगः षकारः योगः अक्तिः अक्तिः भगवत् योगः चकारः योगः षकारः अक्तिः चकारस्य तकारस्य स्थाने चकारः आयाति स्तोः चु नाचुः इत्यनेन शकार शकार एव अस्ति वर्णमेलनेन भवत् शक्तिः भवति
विकल्पः
रूपे स्तः महोदय आचर्यवत् योगः च आचर्यवा योगः तकारः योगः चकारः योगः अः आश्चर्य तकारस्य स्थाने चकारः चकारः आश्चर्यवत् भवति
तत्र प्रायशः एकवारं तत्र इदानीं प्रायशः तत्र यतोहि तत्र सन्धेः करपत्रमपि पठन्तः स्मः अतः तत्र इदानीं तत्र भगवद्गीतायाः श्लोकस्य पठनं मास्तु करपत्रस्य अनन्तरं यदि यदा केवलं गीताप्रवेशस्य एव पठनं कुर्मः तदा तत्र श्लोकस्य पठनं कुर्मः नो चेत् तत्र इतः ततः गच्छन्तः स्मः तर्हि अग्रे अग्रे पठतु भगिनि.
अहं पठामि वा?
जगत्
जगत् योगः छत्रं जगत् योगः तकारः योगः चकारः योगः अत्रं जग योगः चकार तकारस्य स्थाने चकारः स्थोः चुनाचुः इत्यनेन चकारः अत्रं जगत् छत्रं भवति. श्रुत्वसन्धि कृत्वा
समीचीनम् अस्तु. अग्रे तत्र वेदभगिनी अग्रे पठति वा? धन्यवादः भगिनी.
धन्यवादः महोदय.
यद् योगः जुहोषि योगः दकार योगः जकार योगः उहोषि पदविच्छेदनं कृत्वा य योगः द ज वर्णमेव तत्र सन्धिकार्यं भवति. दकार अस्ति परं जकार अस्ति च वर्गस्य वर्णः अस्ति दकार त वर्गस्य वर्णः स्तोः चुनाचुः इति सूत्रेण तत्र जकारस्य स्थाने ने दकारस्य स्थाने जग च वर्गस्य तृतीयवर्णः आयाति जकार. या योगः जकार योगः जकार योगः उहोति वर्णमेलनेन यज्जुहोषि इति रूपं निष्पन्नं. पश्चिमबिन्दुः अस्ति पश्यन् योगः शृणुवन् तत्र नकार शकारस्य वर्णमेलनं सन्धिकार्यं भवति. तत्र नकार अस्ति च वर्गस्य न तत् न त वर्गस्य अन्तिमवर्णः नकार अस्ति षकार च षकार अस्ति तत्कारणेन शुनासु सूत्रं कार्यं करोति. तत्र पश्ययोगः नकारयोगः षकारयोगः ऋणुवन् पश्ययोगः नकारस्य स्थाने च वर्गस्य पञ्चमवर्णः अस्ति ङकार पश्ययोग ङकारयोग षकारयोग ऋणुवन् अस्ति. तत्पश्चात् पश्ययोग ङकारयोग षकारस्य स्थाने छ वर्ग आयाति. केन सूत्रेण तद् महोदय अहं न विस्मरामि. तत्र चकारस्य स्थाने चकार विकल्पेन आयाति इति लिखितं केन सूत्रेण इति
षट्छोटि इति मन्ये. षट्छोटि
अच्छा षट्छोटि ओके ओके षट्छोटि तत्र विकल्पेन चकारस्य स्थाने चकार आयाति. तदेव तत्र पश्य नकारयोग चकारयोग ऋणुवन् पश्यन् शृणुवन् इति रूपं दृश्यते तत्र. अन्तिमबिन्दुः अस्ति यज्ञात् योग ज्ञानयज्ञः. तत्र तकार पूर्वपदं तकार अस्ति उत्तरपदम् आरभ्य उत्तरपदं ञकार अस्ति. तत्र ञकार इत्युक्ते जकारयोग नकार तदेव तत्र दत्तं. यज्ञायोगः तवर्गः तकारयोगः जकारयोगः ज्ञानयज्ञः इति दत्तं. तत्र यज्ञायोगः तवर्ग तोः चुनाचुः इति कार्यं करोति. तत्र तवर्गः अस्ति परं च वर्गः अस्ति इति कारणेन तोः चुनाचुः कार्यं करोति. तकारस्य स्थाने च वर्गस्य तृतीय किं वदामि समान वदामि कि किं वदामि तत्र तवर्गस्य स्थाने च वर्गस्य तृतीयवर्णः आयाति जकार.
यथासङ्ख्यम् अनुदेशः भगिनि समानां यथासङ्ख्यम् अनुदेशः समानां
तत् सूत्रेण यथासङ्ख्यं सूत्रं विस्मरति अहं न ओके तकारस्य जाने जकार योग जकार योगज्ञानयज्ञः यज्ञाज्ञानयज्ञः इति रूपं प्राप्तम्.
समीचीनं भगिनि. अधोभागे
एतेषु उदाहरणेषु सवर्गात् परतः सकार च वर्गौ स्तः. तत्र सवर्गस्य स्थाने च वर्गः आदेशः सम्पन्नः. तत्र तकारादीनां चकारादयः यथासङ्ख्यम् आदेशाः भवन्ति तदेव यथासङ्ख्यम् आदेशाः भवन्ति
समीचीनं भगिनि धन्यवादः
अन्तिम अन्तिमभागं वदामि वा
पठतु भगिनि
पितुः योगचेते शिशुः शिशु योग अनुस्वारकयोग सयोग एते अत्र विसर्ग विसर्गयोग सयोग एते अत्र विसर्गसन्धेः निमित्तमस्ति तदेव विसर्गसन्धि
न पठितवान्
भवान् भवान्
नाम अग्रिमे पाठे तत्र विसर्गसन्धिः
ओके शिशुयोग सकारयोग सकारयोग एते विसर्गस्य सकारादेशः भवति पाण्डवाः योग च पाण्डवाः पाण्डवा योग विसर्गः योग च योग अत्रापि विसर्गसन्धेः निमित्तमस्ति तदेव पाण्डवा योगः स योगः च योग विसर्गस्य सकारादेशः भवति चकारस्य तृतीयबिन्दु सकारस्य छकारो भवति विकल्पेन एकवारं पुनः तत् सूत्रं वदतु शोभा भगिनी षष्ठोटिः वा
षष्ठोटि भगिनि
षष्ठोटि ओके छकारस्य स्थाने
क्षम्यतां भगिनि म्यूट् मध्ये आसम्
चकारस्य स्थाने छकार आयाति निमित्तं किं तत्र
षष्ठोटिः इत्यस्य वा
अटि परे
षष्ठोटिः पश्यामि
अटि परे परे अटि अस्ति चेत्
छयः शः छः वा अटि
अटि अट्वर्णस्थ अट्वर्ण प्रत्याहारस्थ वर्णाः सन्ति चेत्
सर्वे स्वराः अपि च हयावर हयावर
तत्र शः छः अटि
चकार भवति इति वा विकल्पेन चकार भवति धन्यवादः
समीचीनं धन्यवादः अस्तु अग्रे शुभा भगिनी भवती एव अग्रे पठति वा अग्रिमे पुटे
आम् महोदय अतः षकारा चवर्गाभ्यां योगे सकारस्य षकारः षकारचवर्गाभ्यां योगे तवर्गस्य चवर्गः आदेशो भवति निषेधः अपि भवति षकारात् परस्य तवर्गस्य च्युत्वं न भवति यथा विष्योगः नः तत्र विष्णः न तु नकारस्य स्थाने तत्र चवर्गीय अनुनासिकवर्णः न आगच्छति प्रश्योगः नः प्रश्नः इति एव तिष्ठति तत्रापि निषेधः प्रश्नः इति उदाहरणं करपत्रे दृष्टवन्तः तत्र निषेधः भवति शात् इत्यनेन शात् इति सूत्रं तेन तत्र शकारात् तालव्यशकारात् परम् अनुनासिकवर्णस्य आदेशः न भवति इत्युक्ते चवर्गीय अनुनासिकवर्णस्य आदेशः न भवति तवर्गीय अनुनासिकवर्णस्य स्थाने
अपि केवलम् अनुनासिकम् इति नास्ति खलु तत्र यत्किमपि तवर्गीयव्यञ्जनं भवतु तस्य श्रुत्वं
सत्यं श्रुत्वमेव शात् तोः श्चुः न संहितायां शकारात् परस्य तवर्गस्य श्रुत्वं न स्यात् सत्यं महोदय क्षम्यताम्
तत्र
किमपि अन्यत् तवर्गीयवर्णः अस्ति चेदपि तत्र शकारस्य योगे न भवति
अपि तत्र अत्र अन्यत् वक्तव्यं नाम अथवा स्मर्तव्यं नाम तत्र अस्मिन् सन्धौ तत्र क्रमस्य महत्त्वं नास्ति नाम तत्र पूर्वपदम् एतत् स्यात् इति नास्ति खलु नाम ऋत्वसन्धे मध्ये तवर्गः प्रथमं भवितुम् अर्हति तदनन्तरं तत्र ऋत्ववर्णः भवितुम् अर्हति तत्र क्रमः
सत्यम्
अतः यत्र केवलं शकारः पूर्वमस्ति तदनन्तरं तस्मात् परं तत्र तवर्गीयः व्यञ्जनम् अस्ति चेत् तदा स्थुत्वं न भवति, किन्तु विपरीत इति अस्ति चेत्
भिन्ना वार्ता भवति. सत्यं, हा, शकारात् परस्य तवर्गस्य, यतोहि तत्र सूत्रे तु श्चुना इति उक्तम् इत्युक्ते तृतीयविभक्ति विभक्त्याम् उक्तं, तस्य अर्थः भवति पूर्वं वा परं वा भवेत् निमित्तानि इति. अतः तत्र निषेधः यदा भवति इत्युक्ते शकारात् परस्य एव भवेत् इत्युक्ते पूर्वं शकारः भवेत् तदनन्तरं तवर्गीयवर्णः भवेत् तदा अस्य सूत्रस्य प्रसक्तिः भवति शात् इति.
अन्यस्मिन् प्रसङ्गे नास्ति,
न भवति
तत् सन्धिकार्यं करणीयः करणीयम्.
आम्,
अस्तु, समीचीनम्. अस्तु, इदानीम् अग्रे तत्र तत्र भवती एव तत्र अग्रे प्रथम उदाहरणं करोति वा, तदनन्तरम् अन्य एकमेकं कुर्मः.
आं महोदय, तत्र सन्धिं कृता हरिं हरिस् हरिस् योगः शेते, तत्र सकार चकारयोः योगः, अतः तत्र श्चुत्वं भवति. सकारस्य सकारस्य स्थाने शकारादेशः भवति स्तोः इति निमित्तं तत्र सकारः अस्ति. श्चुना इति शेते इति तत्र शकारः अस्ति, अतः तत्र श्चुः इति भवति. सकारस्य श्चुः इत्युक्ते सकारस्य शकारः. हरिष् योगः शेते इति भवति, वर्णमेलनेन हरिष् शेते इति भवति.
अस्तु, द्वितीयमपि करोतु भगिनि.
तत्र स्याद् योगः जनार्दन इति अस्ति. स्याद् पदान्तस्य स्याद् इति तत्र दकारः तवर्गीयवर्णः, तृतीयवर्णः तत्र, अपि च जनार्दन इति चवर्गीय व्यञ्जनं योगे. दकार जकारयोः योगः इदानीम्, अतः निमित्तानि पूरितानि. इदानीं दकारस्य स्थाने चवर्गीयव्यञ्जनम् आदेशरूपेण भवेत्, इदानीं तत्र यथासङ्ख्यम् अनुदेशः समानाम् इति भवति, अतः तत्र दकारः तृतीयवर्णः तवर्गीय तृतीयवर्णः, अपि च तत्र चवर्गीयतृतीयवर्णः एव आदेशरूपेण भवति, अतः स्याज् योगः जनार्दन इति भवति. तदनन्तरं स्याज्जनार्दन एव तिष्ठति वा, अन्यत् किमपि भवति वा तत्र?
तदेव इति मन्ये भगिनि, स्याज्जनार्दन.
स्याज्जनार्दन, अस्तु, इति रूपं भवति.
यथा तत्र यज्जुहोषि इति आसीत् पूर्वं, तत्र स्याज्जनार्दन इति.
आम् आम्, यज्जुहोषि
इति खलु?
आम् आम् महोदय, सत्यं. तत्र यद् दकार जकारयोः योगः एकमेव रूपं तत्र यज् होषि इति.
अतः विकल्पः नास्ति अत्र.
नास्ति,
समीचीनम्. अस्तु, धन्यवादः भगिनि. अग्रे महोदय.
आं महोदय, अग्रे तृतीया अस्ति बृहत् योग छिद्रम्. अत्र बृहत् तत्र तकारः अस्ति, तकार तत्र अग्रे चवर्गीये छकारः अस्ति, अतः तकारस्य परिवर्तनं भवति चवर्गस्य. तकारः तु प्रथमवर्णः अस्ति तवर्गस्य, अतः तत्र चवर्गस्य प्रथमवर्णः आगच्छति चकार. बृहत् बृहच् भवति, अग्रे छिद्रम् अस्ति, अतः बृहच्छिद्रं भवति.
हा, समीचीनं महोदय. छिद्रम् इत्युक्ते छिद्रम् इत्युक्ते
अवकाश यत्र किमपि नास्ति.
हा, छिद्रं नाम तत्र होल् इति, तत्र
होल् होल् अस्ति.
समीचीनं महोदय.
बृहत् अग्रे छिद्रम्. अग्रे यत् योग चन्द्रमसि, अत्रापि तकारः अस्ति, अग्रे चकारस्य मेलनम् अस्ति तकार प्रथमवर्णः अस्ति तवर्गस्य तत्र चवर्गस्य प्रथमवर्णः आगच्छति चकार यच् योगचन्द्रमसि अतः तत् यच्चन्द्रमसि भवति
हा यच्चन्द्रमसि समीचीनम् अस्तु समीचीनम् अस्तु अग्रे तत्र पल्लवी भगिनी अग्रे पठति वा
मृत् शकटिका अत्र तकारयोगे शकार अस्ति तर्हि सोहोश्चु नाश्चुः इति नियमेन तकारस्य स्थाने चकार प्रथमवर्ण च वर्गस्य प्रथमवर्ण मृच् शकटिका इति भवति षोटि इति नियमेन पुनः षकारस्य छकारः विकल्पेन भवति तर्हि ऋच्छकटिका इति सिद्धरूपमपि भवितुम् अर्हति द्वे रूपं
तद्रूपं प्रसिद्धम् अस्ति खलु भगिनि मृच्छकटिका इति
मृच्छकटिका इति सिद्ध
तत्र किमस्ति मृच्छकटिका किं तत्र कालिदासस्य कस्य कस्य किमपि आसीत् मृच्छकटिका इति कोऽपि स्मरति वा न किन्तु कृतं पदं तत्तु जानामि
वेल् नोन् नाटिका अस्ति मृच्छकटिका
नाटकम्
शूद्रका इति दत्तं महोदय
इति वा अस्तु
मृच्छकटिका इति नाटकं शूद्रका इति
ओ अस्तु तत्र प्रसिद्धमेव बहुवारं
आम्
किन्तु किम् इति न स्मृतवान् अस्तु धन्यवादः अस्तु
महाराजशूद्रक
ओ अस्तु ओ उत्तमम् तर्हि पठनीयं किमस्ति इति अस्तु अग्रे भगिनि
योगात् चलितमानसः अत्र तकारयोगे चकार अस्ति स्तोश्चु नाश्चु इति नियमेन चकार प्रथमवर्णस्ति अतः तकार तवर्गस्य प्रथम सोरि आं तवर्ग सोरि तकारस्य चकार भवति तर्हि योगात् चलितमानसः द्विवारं चकार द्वित्वं भवति तत् योगात् चलितमानसः उद् अधिकुज्वलति अत्र दकार तवर्गस्य अस्ति जकार च वर्गस्य अस्ति तत् अतः सोहोश्चु नाश्चुः इति नियमेन दकारस्य प्रथमवर्ण जकार भवति च वर्गस्य तर्हि उज् ज्वलति उज्ज्वलति इति सिद्धरूपं भवति
समीचीनं भगिनि अस्तु धन्यवादः अस्तु समीचीनम् अस्तु अग्रे तत्र सुजाता भगिनी अग्रे पठति वा
स्वपन् योगः श्वसन् स्वपन् पूर्वपदं नकार अन्ते नकार अस्ति उत्तरपदम् आदे शकार अस्ति तत्र नकार शकार योगः अस्ति सन्धि कुर्मः चेत् नकार तवर्गस्य अन्तिमवर्णः नकार शकार परे अस्ति तोहोक्षुणाचुः सूत्रं तत्र कार्यं करोति तदेव तत्र नकारस्य स्थाने चवर्गस्य अन्तिमवर्णः ङकार आयाति स्वपं श्वसन् चकारस्य स्थाने शकारस्य स्थाने चकार आयाति वा तत्र विकल्पेन
तत्र चवर्गीय अनुनासिकव्यञ्जनमेव
आम् स्वपन् श्वसन् इति
स्वपन् श्वसन् इति
हे विद्यार्थिन् नवमबिन्दु हे विद्यार्थिन् योगः जानीहि तत्र नकार पूर्वपदस्य अन्ते नकार अस्ति उत्तरपदस्य आदे च वर्गस्य जकार अस्ति तत्र च वर्गस्य नकार अस्ति उत्तरपदं च वर्गस्य जकार अस्ति इति कारणतः तत्र स्तोभचुनाचुसूत्रं कार्यं करोति नकारस्य स्थाने च वर्गस्य अन्तिमवर्णः नकार आयाति हे विद्यात्मिं जानीहि इति सत्यं वा तत्
हे विद्यार्थिं जानीहि तत्र अनु तत्र चवर्गीय अनुनासिकं
चवर्गस्य अनुनासिकवर्णः अस्ति दशमबिन्दुः अस्ति सत् योगचित् सच्चित् तत्र तकार अस्ति तत्पश्चात् चकार अस्ति तत्र अपि स्तोः चुनाचु सूत्रं कार्यं करोति तकारस्य स्थाने चकार आयाति सच्चित् इति रूपम्
समीचीनम् उत्तमं भगिनि धन्यवादः अस्तु समीचीनम् अस्ति
धन्यवादः
अस्तु तर्हि तत्र इदानीं तत्र अस्तु तर्हि वयं तत्र च्युत्वसन्देहे तत्र करपत्रे यत् सूत्राणां विवरणमपि तत्र गीताप्रवेशे तत्र उदाहरणानि यानि सन्ति तानि पठितवन्तः इदानीम् अग्रे तत्र ष्टुत्वसन्धिः इति तर्हि पुनः करपत्रं गच्छामः तर्हि तत्र ष्टुत्वसन्धिः इति यदस्ति तत्र तत् पठामः तर्हि तत्र सुजाता भगिनी
भवती
तत्र करपत्रे
आम् महोदय स्तुत्वसन्धिः स्तुनास्तुः अष्टमाध्याये चतुर्थपादे एकाधिकचत्वारिंशत्तमे सूत्रमस्ति एकचत्वारिंशत् सूत्रमस्ति दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः तवर्गीयवर्णादेशस्य भवतः मूर्धन्यषकारः तवर्गीयवर्णयोः योजनेन यदासङ्ख्यमनुदेशः समानाम् इति परिभाषासूत्रेण उद्देशिनाम् अनुदेशिनां च यदा क्रमम् उद्देश्यभिः अनुदेशिनः सम्बन्धेन च सम्बन्ध्यन्ते सम्बन्ध्यन्ते क्षम्यतां महोदय ष च टु च स्तुः तेन स्तुना समाहारद्वन्द्वः ष च स्तु च स्तुः समाहारद्वन्द्वः स्तुना तृतीयान्तं स्तुः प्रथमान्तं द्विपदमिदं सूत्रं स्तोः शुनाचुः इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं स्तोः स्तुना स्तुः संहितायाम्
तर्हि किञ्चित् विवृणोतु भगिनि
दन्त्यसकारस्य तवर्गीयवर्णस्य स्थाने मूर्धन्यषकार आदेशः भवति मूर्धन्यषकारः तवर्गीयवर्णाः आदेशः भवन्ति मूर्धन्यषकारः तवर्गीयवर्णयोः दन्त्यसकारः तवर्गीयवर्णः योगेन सकारस्य स्थाने मूर्धन्यषकारः आयाति यदा सङ्ख्यमनुदेशे समानम् इत्युक्ते सकारस्य स्थाने षकारः आयाति तवर्गीयस्थाने तवर्गीयवर्णाः यदा सङ्ख्यमनुदेशसमानम् इत्यनेन आयाति स्तुनास्तुः इत्यनेन वर्ण
भगिनि तर्हि तत्र प्रथमवाक्यं दन्तसकारस्य तवर्गीयवर्णस्य च स्थाने
मूर्धन्यषकारः आदेशः भवति तवर्गीयवर्ण आदेशात् च भवतः तवर्गीय परे
कदा भवति कदा आदेशः भवति
तवर्गीयवर्णस्य स्थाने तवर्गीयवर्णः आदेशः भवति यदा सङ्ख्यम् अनुदेशे समानम् इच्छनीयं
तत्र मूर्धन्य षकार तवर्गीयवर्णयोः
मूर्धन्य तवर्गीयवर्ण आदेशः भवति
तत्र अस्तु अस्तु तर्हि तत्र अस्तु भगिनि तत्र श च टुश्च ष्टुः इति ततः आरभ्य पठतु तर्हि
श च ष्टु च ष्टुः षकारः तवर्गीयवर्णः टु टु इत्युक्ते तवर्गीयवर्णः
समीचीनं भवति तेन इत्युक्ते तस्य तृतीया विभक्ति
आम् तेन स्टुना भवति समाहारद्वन्द्वः श च स्टु स्टु च स्टुः
टुश्च टुश्च
समाहारद्वन्द्वः स्टुना तृतीयान्तम्
स्टुः
स्टुः सम स्टुना तृतीयान्तं स्टुः प्रथमान्तम् इदं सूत्रं स्तोः चुना चुः इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः तयोर्यवावति संहितायाम् इत्यस्य संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति स्तोः स्तुना स्तुः संहितायां संहितायां सकार तवर्गीयवर्णयोः परे शकार टवर्गीयवर्णः अस्ति चेत् स्तुः आदेशः भवति तदेव
पुनः वदतु
संहितायां सकार तवर्ग तवर्गीयवर्ण अस्ति चेत् स्तोः षष्ट्यन्तम् अस्ति न महोदय
सत्यं भगिनि समीचीनं
स्तुना षकार मूर्धन्यषकारः तवर्गीयवर्णः आदेशः भवति स्टुः
तर्हि समीचीनं स्टुना इति तर्हि तस्य अर्थः कः
स्टुना इत्युक्ते तृतीया विभक्ति अस्ति पूर्वं भवेत् या परं भवेत्
उत्तमम् तदेव तदेव तत्र वक्तव्यमासीत् भवती उक्तवती उत्तमं नाम स्टुः तत्र भवेत् तर्हि स्टुः पूर्वं भवेत् परं भवेत् चिन्ता मास्तु किन्तु स्टुः भवेत् यदा भवति तर्हि स्तुः इति तस्य परिवर्तनं स्टुः इति इत्यनेन इति रूपेण भवति उत्तमं भगिनि अस्तु समीचीनं तर्हि तत्र इदानीं तत्र प्रथम तत्र उदाहरणं उदाहरणं करोतु
बालस्योगः षष्ठः बालस् सकारः अस्ति सकारः स्थाने स्टुनास्टुः इत्यनेन बाल मूर्धन्यषकारः आयाति बालषष्ठः भवति
तर्हि षकारस्य प्रभावेन तु सम्पर्केण सकारः षकारः भवति षकारस्य प्रभावेन सकारः षकारः भवति अस्तु समीचीनम् अग्रे द्वितीयं
बृहत् योगः टीका बृहत् तकारः अस्ति चवर्गीये तवर्गीयवर्णः अस्ति टीका तवर्गीयवर्णः अस्ति तवर्गीयस्थाने तवर्गीयवर्णः आयाति बृहत् टीका तव द्वितीयपदे तवर्गीयवर्णः अस्ति, प्रथमवर्णः बृहत् टीका भवति. तदेव आकृष् योगः तः आकृष्टः, आकृष् शकारः अस्ति, तकारः परः अस्ति, शकारः स्तुनास्तुः इत्यनेन तृतीया विभक्तिः भवति, इत्यनेन शकारः परः भवेत् या पूर्वं भवेत् तस्य स्थाने तवर्गीयस्थाने टकारः आयाति, आकृष्ट भवति, आकृष्टः भवति
इति अस्ति. उत्तमं भगिनि. तर्हि तत्र आकृष्योगः तः, तत्र तु क्तप्रत्ययः खलु, नाम भूतकालरूपं. तत्र अतः तत्र तस्य बहुत्र तत्र क्तप्रत्ययस्य रूपे टकारः तत्र दृश्यते, तत्र ष्टुनाष्टुः इति ष्टुत्वसन्धेः कारणात् इति इदानीं जानीमः. यथा आकृष्टः इति भवति. उत्तमं भगिनि, धन्यवादः, समीचीनम्. अस्तु अग्रे शोभा भगिनि.
आं महोदय, इदानीं बृहत् योगः टीका, ओ तत्र तोः शिः, क्षम्यतां, तोः शिः इति अस्ति खलु, हा, तोः शिः इति सूत्रं तवर्गस्य ष्टुत्वं न स्यात् शकारे परे, ष्टुनाष्टुः इत्यस्य निषेधकसूत्रं, तोः षष्ठ्यन्तं षि सप्तम्यन्तं द्विपदमिदं सूत्रं, ष्टुनाष्टुः इत्यस्मात् ष्टुः इत्यस्य अनुवृत्तिः, न पदान्ताट्टोरनाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः, तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रं तोः षि न ष्टुः संहितायाम् इति. तर्हि तत्र इदानीं ष्टुनाष्टुः इत्यस्य कृते अपि एकं निषेधकसूत्रम् अस्ति, तोः षि इति. तत् सूत्रं वदति, एतत् सूत्रं वदति तवर्गस्य ष्टुत्वं न स्यात् शकारे परे इति. शकारे परे, इदानीं परे, शकारे परे, पूर्वं शकारात् इति सोः ष्टुनाष्टुः इति दृष्टवन्तः, शकारात् परे इति. इदानीं शकारात् परे तवर्गस्य ष्टुत्वं न भवेत् इति वदति सूत्रम्. इत्युक्ते तत्र तवर्गस्य स्थाने टवर्गीयवर्णानाम् आदेशः न भवति, निषिद्धः भवति. अपि च तत्र ष्टुनाष्टुः इति इत्यस्मात् ष्टुः इत्यस्य अनुवृत्तिः स्वीकृतं, न पदान्तात् टोरनाम् इति सूत्रमस्ति, तस्मात् न इत्यस्य अनुवृत्तिः स्वीकृतं, तयोर् यवावचि संहितायाम् इति सूत्रं पूर्वमपि दृष्टवन्तः, तेन तस्मात् सूत्रात् संहितायाम् इति पदं स्वीकृतम्. अतः तत्र अन्ते तोः इत्युक्ते तुः इत्यस्य, तोः इति षष्ठी विभक्तिः भवति, तवर्गीयवर्णस्य षि इत्युक्ते परे, सप्तमी विभक्त्याम् अस्ति तत्र, अतः परे अस्ति इति, शकारे परे परम् अस्ति, न ष्टुः, ष्टुः इति न भवेत् तयोः संहितायाम् इति सूत्रं वदति. अत्र एकम् उदाहरणं दत्तं, भवान् योगः षष्ठः इति, तत्र पूर्वं तवर्गीयवर्णः अस्ति तोः इति निमित्तं, तत्र परवर्णः अस्ति मूर्धन्यशकारः, तत् षि इति निमित्तं भवति. तर्हि तत्र ष्टुः न इति, अतः तत्र नकारस्य स्थाने टवर्गीयवर्णः न आगच्छति, तत्र टवर्गीय अनुनासिकवर्णः भवेत् किन्तु न भवति, भवान् षष्ठः इति एव तिष्ठति, नकारस्य नकारादेशः न भवति इति कार्यमस्ति.
समीचीनं. तर्हि तत्र मूर्धन्यषकारः परे अस्ति चेत् तत्र कदा एतत् सन्धि, एषः सन्धिः कार्यं करोति?
पूर्वमस्ति चेत् तस्य सूत्रस्य प्रसक्तिः नास्ति, शकारः पूर्वमस्ति चेत्, किन्तु तत्र तु शकारे परे इति उक्तम्, अतः परे इत्युक्ते
किन्तु शकारः परम् अस्ति, किन्तु इदानीं तत्र किं पूर्वं किम् अस्ति चेत् सन्धिकार्यं भवति, परं शकारः अस्ति किन्तु पूर्वं किम् अस्ति चेत् कार्यं सन्धिकार्यं भवति,
सवर्गस्य स्तुत्वं न भवति. हा, इत्युक्ते तत्र स्तोः इत्यस्य तवर्गस्य एव स्तोः शी.
हा, तत्र तवर्गः अस्ति चेत् सन्धिकार्यं
न भवति, निषेधः.
तत्र स्तोः इति तत्र स्तोः इति निष्कासयामश्चेत् किम्
अन्यत् किमपि व्यञ्जनम् अस्ति चेत् इति वा महोदय?
न न, स्तोः स्तोः मध्ये किं किम् अस्ति?
सकारः अस्ति, तवर्गीयवर्णाः सन्ति.
हा, सकारः अपि तवर्गीयव्यञ्जनः,
सकारः अपि, हा सकारः अपि तवर्गीयवर्णाः, किन्तु तत्र स्तोः इति एव स्वीकृतम्, अतः तत्र सकारस्य विषयः नास्ति, विषये नास्ति अयं सूत्रं, केवलं तवर्गीयवर्णानां विषये एव तदपि वदनीयमासीत्. आम्,
तर्हि तत्र सकारः प्रथमम् अस्ति, तदनन्तरं शकारः अस्ति चेत् सन्धिकार्यं भवति, यथा तत्र प्रथम उदाहरणम् आसीत्.
आम्, तत्र बालस् षष्ठः इति तत्र तु भवति, तत्र सकारः स्तोः इत्यस्य सकारः, किन्तु अस्मिन् आम् महोदय, तवर्गीयवर्णानां कृते एव
इति अस्ति. समीचीनं भगिनि. हा, अपि प्रायशः एतत् पदं तत्र बालषष्ठः प्रथमवारम् अहं तत्र किमपि पदं पश्यन् अस्मि यस्मिन् तत्र चत्वारः एकस्य अनन्तरं
प्रयोगे तु न दृश्यते सामान्यतया महोदय.
अपि भगिनि तत्र मूर्धन्यषकारः आगच्छति द्विवारं त्रिवारं, किन्तु एकस्य अनन्तरम् एकम् अस्ति भगिनि, समूहरूपेण षकारः मूर्धन्यषकारः सन्ति तत्र.
आम्,
हा, विशिष्टपदमस्ति. हा, उत्तमं, धन्यवादः भगिनि. अस्तु,
धन्यवादः
नरेश. हा, नरेश महोदय अग्रे.
न पदान्तो पदान्ताट्टोरणां पदान्तात् टवर्गात् स्तोः ष्टुः न स्यात् नाम नकारं वर्जयित्वा. ष्टुनाष्टुः इत्यस्य निषेधकसूत्रं न अव्ययपदं पदान्तात् पञ्चम्यन्तं टोः पञ्चम्यन्तम् अनाम लुप्तषष्टिके पदम् अनेकपदं सूत्रं स्तोः ष्टुनाश्चुः इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः ष्टुनाष्टुः इत्यस्मात् ष्टुः इत्यस्य अनुवृत्तिः तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पदान्तात् टोः स्तोः ष्टुः न अनाम संहितायाम्. अत्र सूत्रमस्ति न पदान्तात् टोरणाम् पदान्तात् पदन्ते तत्र टवर्गात् स्तोः ष्टुः न स्यात् पदन्ते टवर्गः अस्ति चेत् तत्र अग्रे स्तोः अस्ति सकार तवर्गः अस्ति तत्र ष्टुत्वं न भवति. एतत् निषेधकसूत्रम् अस्ति, केवलं नकारं वर्जयित्वा, यत्र नकारः अस्ति तत्र किमपि भिन्नम् अस्ति, परन्तु सामान्यतया पदान्ते टवर्गात् अस्ति चेत् स्तुः अष्टुः न भवति अत्र
नाम तत्र तर्हि महोदय तत्र नाम टवर्घात् इति तत्र किं प्रथमं भवेत् तत्र टवर्घात् इति पञ्चमी खलु
पदान्तात् टवर्घात् टवर्ग अस्ति तत्परं सकारा अस्ति चेत् अपि च कोऽपि टवर्गस्य वर्णः अस्ति चेत् तत्र
नाम किं कः वर्णः अग्रे भवेत् प्रथमः
टवर्गः
द्वितीयवर्णः सकारः भवेत्
सकारः अपि च टवर्ग
किन्तु नकारः नास्ति
नकारः नास्ति
अतः
महोदय तत्र अना नकारः स्टुः न इति स्टुः न भवति इति अनामिति अस्ति किन्तु नाम इत्यस्य कृते तु भवति इति
न स्यात् नामः इत्युक्ते नकारं वर्जयित्वा इति खलु
हा नाम स्यात् नामः नकारं वर्जयित्वा इत्युक्ते नाम इति पदं भवति चेत् नामः नकारं वर्जयित्वा अस्तु
नाम नकार अस्ति चेत् तदा तु ष्टुत्वं सन्धि भवति परन्तु
अनुवृत्तिसहितसूत्रे महोदय तत्र पदान्तात् टोः स्तोः ष्टुः न अनाम् इति एव दत्तं नकारः न उक्तं खलु
न अनाम् अस्ति
नकारः नास्ति
न महोदय तत्र नाम इति पदमस्ति तस्य विषये अनाम् इति नै तत्पुरुषः तत्र
न अनाम् नाम नास्ति अपि च नकारः नास्ति चेत् अपि भवति अग्रे द्वे उदाहरणं सन्ति शन् योग नवति अपि च शन् योगी योग नगर्यः तत् नवति अस्ति नवति नकारस्य वर्णः अस्ति अतः तत् अपि नकारम् अस्ति चेत् तत्र ष्टुत्वं सन्धि भवति
तत्र पूर्वं पठितवती महोदय तयोः पदयोः कृते विशेषतया भवति नाम नवति नगर्या इति मम स्मरणे अस्ति वेदभगिनी किं चिन्तयति
अहम् अस्माकं पुस्तके अपि अस्ति एकत्रिंशत् पृष्ठे यथा षण्णाम षण्णवति षण्णगर्यः
तयोः विषये भवति इति मम स्मरणे अस्ति पूर्वं पठितं तत्र नकारः इति तत्र अष्टाध्यायी डाट् काम् मध्ये अपि दृष्टवती नकारः इति न उक्तं तत्र
अग्रे तत् सूत्रमपि तत् वार्तकमपि दत्तमस्ति अनाम नवति नगरी नाम नामिति
वाच्यम् इति वार्तिकं अहं न दृष्टवती अत्र एव अस्ति
समीचीनं तर्हि तत्र नाम इति तत्र तस्मिन् तत्र एतत् सर्वं अन्तर्भूतः इति नाम
तत्र नाम नवति नगर्य इति पदयोः पदानां कृते न भवति अनाम् नवति नगरि नाम इति वाच्यम्
अतः तत्र केवलं नकारः अस्ति इति वार्ता नास्ति तत्र केवलं यदा एत तत्र त्रीणि पदानि सन्ति चेत् एव अस्तु तदा एव
तत्र नकारं वर्जयित्वा तत् इत्युक्ते किम् अस्ति नकारं वर्जयित्वा
नामः नकारम् इति अस्ति तत्र महोदय खलु
महोदय
नामः नकारम् इति
नामः इति तत्र प्रायश षष्टि अस्ति तत्र नामः नकारः तत्र नाम इति अकारान्तपदम् अकारान्तपदं न स्यात् इति मन्ये नाम तत्र नामः नकारं वर्जयित्वा नामः इत्युक्ते तत्र यत् भवती उक्तवती तत्र
नाम इति पदम् अस्ति महोदय इति मन्ये अनाम
तस्य सृष्टिः भवति इति भवान् वदति नामः नकार इति
नामः इत्युक्ते नाम इति पदस्य षष्टिः
हलन्तपदं
नामः पदस्य नकारं वर्जयित्वा
एतेन सूत्रेण अपि च वार्तिकेन अपि नाम नवति
ते अपि अन्तर्भूताः भवन्ति इति प्रायशः अस्ति
नवति नगर्य विषये अपि एतत् सूत्रं
यतोहि सूत्रे तु नाम एव उक्तम् अतः वार्तिकेन
वार्तिकेन अन्यपदद्वयमपि तत्र आगच्छन्ति तर्हि तत्र निषेधः नास्ति सन्धिकार्यं तत्र भवति अस्तु समीचीनम् अस्तु तर्हि तत्र समयः जातः किन्तु एकः तत्र अग्रिमे सप्ताहे तत्र वर्गः न भवति केवलं वदामि अपि तस्य अनन्तरं तत्र अमेरिकादेशे तत्र समयस्य परिवर्तनं भवति यतोहि तत्र भारत तत्र डेलैट् सेविङ्ग्स् इति भवति इति कृत्वा तर्हि तत्र अग्रिमे सप्ताहे वर्गः नास्ति अनन्तरं वर्गः भवति किन्तु परिवर्तितसमयः भवति तत्र
किम् उक्तवान् महोदय समयः कः न न परिवर्तनं कृत्वा
समयं किम् इति
सदा षड्वादने भवति
अमेरिकादेशे
तत्र सार्ध अष्टवादने किन्तु तदनन्तरं
भारतदेशस्य कृते एव परिवर्तनं वा
न न भारतदेशे सदा षड्वादने एव
चिन्तनं
षड्वादने एव भारतदेशे अत्र एव तत्र वयं परिवर्तनं कुर्वन्तः स्मः खलु
मम प्रश्नः महोदय तत्र भवान् अत्रापि अमेरिकादेशे अपि परिवर्तनं करोति सामान्यतया
तदेव इदानीं करोमि तदेव
अस्तु
तदेव करोमि भारतदेशे सामान्यसमयः भारतदेशे समयस्य परिवर्तनं नास्ति अत्र परिवर्तनं भवति नाम सार्धसप्तवादने सार्धसप्तवादने आरम्भः भवति षड्वादने भारतदेशे षड्वादने तत्र परिवर्तनं नास्ति अमेरिकादेशे ईस्ट् कोस्ट् मध्ये तत्र सार्धसप्तवादने
इ अस्ति अस्तु मम कृते सार्धषड्वादने भवति अस्तु
मम
सार्धषड्वादने किम् अस्ति
भवती केन्सस् मध्ये अस्ति इति कृत्वा
हा सेण्ट्रल् टैम् महोदय
सेण्ट्रल् टैम्
इति अतः
अस्तु
इति अस्ति अस्तु तर्हि तत्र पल्लवी भगिनी अन्ते तत्र शान्तिमन्त्रमस्ति वा भगिनि
आं महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्तिः 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 धन्यवादः
धन्यवादः नमस्कारः
धन्यवादः महोदय नमस्कारः
धन्यवादः नमस्कारः
धन्यवादः महोदय
धन्यवादः भगिनि नमस्कारः